अस्माभिः ह्यस्तनकक्षायां संस्कर्ता इति रूपस्य कथं तत्र प्रक्रिया इति अस्माभिः ज्ञातम्। संपुंकानां सो वक्तव्यः इति सूत्रमस्ति। तत्सूत्रम् अपठित्वा एव वयम् अग्रे गतवन्तः। संपुंकानां सो वक्तव्यः इति सूत्रे संपुंकानां सः वक्तव्यः इति पदत्रयं विद्यते। अत्र संपुंकानां इत्युक्ते षष्ठी बहुवचनमस्ति, सः इति षष्ठी एकवचनमस्ति, वक्तव्यः इति प्रथमा एकवचनमस्ति। संपुंकानां सो वक्तव्यः इति सूत्रं वा इति पश्यामः। तत् सूत्रं नास्ति, वार्तिकमस्ति। वार्तिकं किं वदति इति पश्यामः। विसर्गस्य इति संपुंस्कानां सः वक्तव्यः, अत्र वार्तिकस्य अर्थः संपुंकान्, संपुंकान्, संच पुंच काञ्च संपुंकानः, तेषां संपुंकानां, संच पुंच काञ्च। अत्र संपुंकान् एतेषां शब्दानां यदा विसर्गः, एतेषां शब्दस्य अन्ते यदा विसर्गः अस्ति, इदानीं सम् इत्यस्य समः, सम् इत्यस्य विसर्गः, पुम् इत्यस्य विसर्गः, कान् इत्यस्य विसर्गः यदि अस्ति चेत् विसर्गस्य स्थाने सकारः आदेशः भवति इति वार्तिकस्य अर्थः। इदानीं तत् उदाहरणं तु अस्माभिः दृष्टं, पुनः पश्यामः। सर्स्कर्ता इति अस्ति, अनुनासिकपक्षे किं भवति तत्र अत्रानुनासिकस्य पूर्वस्य तु वा इति सूत्रेण तत्र रुः भवति। तत्र प्रथमं तु संकर्ता, अनन्तरं सुट्टागमः, सुट्टागमः सम्परिज्ञां करोतौ भूषणे इत्यनेन सुट्टागमः संस्कर्ता इति अभवत्। एवं तत्र मकारस्य स्थाने रेफः समसुटि इति सूत्रेण, तदनन्तरं रेफात् पूर्वम् अनुनासिकः भवति, एवं सर्स्कर्ता इति भवति। सर्स्कर्ता इत्यत्र खरवसानियो विसर्जनीयः इत्यत्र रेफस्य विसर्गः, तदनन्तरं विसर्गस्य सकारः, संपुंकानां सो वक्तव्यः इति वार्तिकेन विसर्गस्य सकारः अनुस्वार। एवं संस्कर्ता, संस्कर्ता इति अभवत्, संस्कर्ता इति अभवत्। अनुस्वारपक्षे तु सम् एवमेव भवति, सर्वं समानं, परन्तु संस्कर्ता इति अनुस्वारपक्षे भवति। एतदस्माभिः अधीतं, संपुंकानां सो वक्तव्यः इति वार्तिकस्य अध्ययनम् अस्माभिः न कृतं, तदिदानीं कृतम्। एवं विवरणं संस्कर्ता, तद्विवरणं तु अस्माभिः दृष्टम्। अग्रिमसूत्रं विद्यते, पुमःकय्यमपरे इति सूत्रं विद्यते। अत्र पुमःकय्यमपरे इति सूत्रं विद्यते। अम्परे खै पुमः रुः स्यात् इति अस्ति। इदानीं पश्यामः, अस्मिन् सूत्रे पदत्रयं विद्यते, अष्टमाध्यायस्य तृतीयपादस्य सूत्रमेतत्। तत्र पुमः इति षष्ठीविभक्तिः, खै खय्यमपरे, खै अम्परे, कैयम परे, कैयम अपरे इति न, कैयम परे, कुमा कैयम परे, तो कई अम परे, कई इति सप्तमी विभक्ति एकवचनम्, कई इति प्रत्याहारः अस्ति, यानी अत्र किं भवति, मतु असो रु संबुद्धौ छन्दसि इति एकं सूत्रं विद्यते, तत् अष्टमाध्याये पश्यन्तु कृपया, तत्र मतुवसोरु संबुद्धौ छन्दसि इति सूत्रात् रुहु इति अनुवर्तते, एवं पुमः पुमः अम्परे किं भवति खै खै अम्परे यदि खै भवति तदा पुमः मकारस्य स्थाने रुहु आदेशः भवति पश्यामः कथं भवति इति पुं कोकिलः इति अस्ति तत्र विशेषतः पुमांश्च असौ कोकिलः इदं कोकिलः अस्ति कोकिलः पुमान् वा स्त्री वा इति अस्माभिः निर्णेतव्यं तदा अस्माभिः उच्यते पुंस् कोकिलः इति उच्यते अत्र पुमांश्च असौ कोकिलः इति विग्रहः कर्मधारय समासः अत्र पुं कोकिल इति प्रथमं भवति पुं को पुं क ओ किल इति अस्ति अत्र अस्ति क इति खैवर्णः अस्ति ओकारः अम्वर्णः अस्ति ओकारः अम् प्रत्याहारे आगच्छति अम् प्रत्याहारे कथम् आगच्छति अम् 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 इत्यस्य मकारः कुत्र अस्ति न्यमगणनम् इत्यत्र अम् अस्ति अकारस्तु ऐवन् इत्यत्र अकारः एवम् ओकारः अम् प्रत्याहारे अन्तर्भवति क इति खै प्रत्याहारे खै वर्णः अस्ति एवं किम् अभवत् इदानीं पुं पुमः खय्यमपरे खय्यं परे इति सूत्र सूत्रस्य अनुसारेण तत्र खैवर्णः अस्ति ततः परम् अम्वर्णः अस्ति तद् यदि अस्ति तदा पुम् इति शब्दस्य मकारस्य रेफः एवं मकारस्य इदानीं पुर् इति अभवत् पुर् कोकिलः पुर् कोकिलः इति अभवत् इदानीम् अत्रानुनासिकस्य पूर्वस्य च वा इति एकं सूत्रम् अस्माभिः दृष्टम् तत्र अत्र इत्युक्ते रुप्रकरणे यदा यदा रुप्रकरणं भवति इत्युक्ते रेफादेशः भवति तदा अस्माभिः पूर्वस्य अनुनासिकः करणीयः विकल्पेन यदि अनुनासिकः नागच्छति तदा अनुस्वार आगमः आगच्छति एवं पुर् इत्यस्य पू इत्यस्य उकारस्य उपरि अनुनासिकः आगच्छति एवं पू पुर् पूर् कोकिलः अत्रानुनासिकस्य पूर्वस्य तु वा यदि अनुनासिकः नागच्छति पुं ऋ कोकिलः इति भवति तदनन्तरं रेफस्य खरवसानयोर्विसर्जनीयः इति किं भवति पू ह कोकिलः विसर्गः अस्ति पूः कोकिलः पुं कोकिलः इति विसर्गः श्रूयते ततः परम् ततः परं किं भवति ततः परं सम्पुङ्कानां सो वक्तव्यः इति वार्तिकम् अस्माभिः श्रुतम् सम्पुङ्कानाम् इदानीम् अस्माभिः सम् इत्यस्य उदाहरणं संस्कर्ता इति आगतम् पुम् इत्यस्य उदाहरणम् अत्र अस्ति सं पुं कानां सो वक्तव्यः इत्यत्र वार्तिकेन किं भवति विसर्गस्य सकारादेशः भवति विसर्गस्य सकारादेशे कृते पुंस्कोकिलः पुंस्कोकि सकारः पुंस्कोकिलः इति प्रयोगः जायते एवं पुमः खय्यं परे इति सूत्रस्य उदाहरणं पुंस्कोकिलः पुंस्कोकिलः इति रूपद्वयम् अस्ति एतद् अवगतं वा सर्वैः अस्तु जानकी कामकोटि इदानीम् एकम् उदाहरणं वदामि एकं गृहकार्यं ददामि एकं गृहकार्यं ददामि पुल्लिङ्गः इति शब्दः अस्ति पुल्लिङ्गः तस्य शब्दस्य किं साधुरूपं कथं लेखनीयं तस्य किं साधुरूपम् इति वक्तुं शक्यते वा अग्रिमकक्षायाम् अहं पृच्छामि पुल्लिङ्गम् इति पदं तु अकारान्तः पुल्लिङ्गः रामशब्दः इति अस्ति तत्तु सर्वैः ज्ञायते पुल्लिङ्गम् इति कथं लेखनीयं तदेकं गृहकार्यम् अत्र पुमस्तय्यं परे इति सूत्रं स्मरतु सम्पुङ्कानां सो वक्तव्यः यद्यदस्माभिः अधीतम् अस्मिन् प्रकरणे तत्सर्वं स्मृत्वा पुल्लिङ्गम् इति तस्य उच्चारणम् अनन्तरं शुद्धरूपं कथं भवति इति पुस्तकं दृष्ट्वापि वक्तुं शक्यते तत् लघुकौमुद्यां तु नास्ति तत् उदाहरणं लघुकौमुद्यां नास्ति परन्तु यत् कुत्र लभ्यते इति भवत्यः जानन्ति चेत् दृष्ट्वा परन्तु गृहकार्यं कृत्वा आगच्छन्तु अग्रिमकक्षायां पृच्छामि तत् एकमेव कार्यम् अनन्तरम् अग्रिमसूत्रम् एवं विद्यते नश्चव्यप्रशान् अष्टमाध्यायस्य तृतीयपादस्य सूत्रम् नश्चव्यप्रशान् इत्यत्र नः छवि अप्रशान् इति पदच्छेदः नः इत्यस्य षष्ठी एकवचनमस्ति छवि इति सप्तमी एकवचनमस्ति अप्रशान् इति शब्दः तु प्रथमा एकवचनम् अस्ति सूत्रार्थः एवम् अत्र अस्ति अम्परे छवि नान्तस्य पदस्य रुः न प्रशान् शब्दस्य इति तत्र न तु प्रशान् शब्दस्य इति मूले अस्ति अत्र पदत्रयं तद् ज्ञातम् इदानीं कथं तत्र सूत्रार्थः सम्पन्नः इत्यत्र वयं पश्यामः इदानीं पुमः कय्यं परे इति सूत्रात् अम्परे इति अनुवर्तते अम्परे इति अनुवर्तते पदस्य इति अधिकारः अस्ति अधिकारः पदस्य इति अधिकारः अस्ति कृपया अधिकारः अधिकारं पश्यन्तु तत्र पदस्य इति अष्टाध्याय्यां पदस्य इति अधिकारः अस्ति कुत्र अस्ति इति अस्माभिः द्रष्टुं शक्यते पदस्य इति अधिकारः कुत्र अस्ति द्वितीयपादे अस्ति वा पश्यन्तु कृपया पदस्य इति सूत्रं कुत्र विद्यते पदस्य इति अधिकारं कस्मात् प्रदत्तस्य अष्टाध्यायं लब्धः वा पदस्य इति अधिकारः प्रथमपादे अस्ति वा पदस्य इति अस्ति वा तर्हि पदस्य इति वामे तत्र किमपि संख्या अस्ति किल तत् संख्यां पठन्तु कृपया पदस्य इति सूत्रस्य वामे एव संख्या अस्ति संख्या विद्यते 8354 पर्यन्तम् अधिकारः गच्छति नश्चव्यप्रशान् इति सूत्रं तु 837 मध्ये अस्ति अस्तु अस्तु तर्हि इदानीं नश्चव्यप्रशान् पुमः कय्यं परे इति सूत्रात् अं परे इति अनुवर्तते पदस्य च इति अधिकारः आगतः एवं वा इदानीं श्रूयते वा तत्र पदस्य इति अधिकारात् लभ्यते नश्चव्यप्रशान् इत्यत्र नः पदस्य नकारान्तस्य पदस्य अम्परे छवि सो अम्परकछवर्णः भवेत् तदा रुः भवति रुत्वं स्यात् प्रशान् शब्दस्य न भवति इति प्रशान् इति विशेषः एकः परिगणितः शब्दः तत् तस्य न भवति इति अस्य सूत्रस्य अर्थः एवम् अम्परे छवि नान्तस्य पदस्य रुः स्यात् इति आगतम् इदानीम् अम् इत्युक्ते के वर्णाः इति वयं पश्यामः ञमगणनं पर्यन्तम् अ अकारादारभ्य छव् इत्युक्ते क प छ ट त चटतौ छ ठ थ चटत इत्येतेषु वर्णेषु परतः एव नकारान्तस्य पदस्य अन्त्यः नकारस्य स्थाने अलोन्त्यस्य इति परिभाषया अन्त्यनकारस्यैव आदेशः न तु सम्पूर्णसमुदायस्य रु इति आदेशः भवति प्रशान् शब्दं वर्जयित्वा इति सूत्रार्थः अस्ति सूत्रस्य उदाहरणम् अत्र लघुकौमुद्यां न दत्तम् किमर्थं न दत्तम् इत्युक्ते अग्रिमसूत्रस्यापि प्रयोजनम् अस्ति अग्रिमसूत्रम् उक्त्वा ततः सूत्रद्वयस्यापि उदाहरणं चक्रिं स्त्रायस्व इति उक्तम् तत् पश्यामः इदानीं विसर्जनीयस्य सः इति अस्ति अग्रिमसूत्रम् विसर्जनीयस्य सः इत्यत्र सुलभमस्ति खरिपरे विसर्जनीयस्य सः भवति सकारः भवति खर्वर्णः यदि परः अस्ति तर्हि विसर्गस्य स्थाने सकारः इति उक्तमस्ति इदानीं चक्रिन् त्रायस्व इति उदाहरणं चक्रिन् त्रायस्व इति उदाहरणं चक्रिन् त्रायस्व इत्यत्र किं भवति कथं भवति इति पश्यामः विसर्जनीयस्य सः इत्यत्र षष्ठीभक्तिः प्रथमाभक्तिः तत्तु ज्ञायते पदद्वयम् एतत् सर्वम् आगतम् इदानीं चक्रिन् त्रायस्व इति उदाहरणं चक्रिन् त्रायस्व इत्यत्र नकारस्य रेफः नश्चव्यप्रशानिति नश्चव्यप्रशानिति सूत्रार्थः कः अम्परे छवि नान्तस्य पदस्य रुः स्यात् न तु प्रशान् शब्दस्य अत्र प्रशान् शब्दः नास्ति इदानीम् अम्परकत्वमस्ति वा अम्परे छवि अम्वर्णः अम्वर्णः कः वर्णः नकारः तर्हि छौ वर्णः कपछट चकारः छवर्णः तर्हि किम् अभवत् चक्रिन् इत्यस्य नकारस्य स्थाने कः आदेशः रु इति आदेशः रु इत्यस्य रेफः एव अवशिष्यते सो चक्रिर्त्रायस्व इति अभवत् इदानीं तदनन्तरं स एव प्रक्रिया अनुनासिकात् यदि अनुस्वारपक्षः स्वीक्रियते अनुस्वार अनुनासिकात् परो अनुस्वारः इति अनुस्वारपक्षः यदि अनुनासिकपक्षः स्वीक्रियते चेत् तत्र अनुनासिकस्य पूर्वस्य तु वा इति सूत्रेण अनुनासिकः वा अनुस्वारः वा आगच्छति तदनन्तरं करवसानयोर्विसर्जनीयः इति रेफस्य विसर्गः चक्रिः त्रायस्व चक्रिः 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 न चक्रिः इति तत्र अनुस्वारमपि अस्माभिः उच्चारणीयं चक्रिः त्रायस्व इति अभवत् तदनन्तरं विसर्जनीयस्य सः इति इदानीम् अस्य सूत्रस्य प्रवृत्तिः विसर्जनीयस्य सः कदा विसर्जनीयस्य सः भवति खर्वर्णे परे तकारः कर्णवर्णः इदानीं चक्रिंस्त्रायस्व इति अभवत् अत्र अनुनासिकपक्षे तु चक्रिंस्त्रायस्व इति अनुनासिकचिह्नं तत्र भवति चक्रिंस्त्रायस्व चक्रिंस्त्रायस्व इति रूपद्वयम् आगच्छति अवगतं वा सर्वैः तत् सर्कल् किम् इत्युक्ते तत् किमपि नास्ति तत्र टैप् स्क्रिप्ट् वेन् वि टैप् इन् भाषा एम् ई आर् बरः इट् कम्स् लैक् दट् वेन् वि टै वेन् यु टैप् एन् ऐसोलेटेड् विसर्ग वितौट् ए स्वरवर्ण बै द सैड् साक्षात् स्वरवर्ण इस् नाट् देर् इट् विल् कम् वित् कम्प्यूटर् प्राब्लम् देट् इस् बिकास् आफ् कम्प्यूटर् ओन्लि सो देट् इस् बिकास् वि टैप् इन् टैपिङ्ग् प्राब्लम् देट् इस् अ टैपिङ्ग् इश्यू वेन् द फाण्ट् गेट्स् रेण्डर्ड् it doesn't have a see visarga is always if the visarga letter expects one swara before it so only visarga if you type it comes but with a circle चक्रिः इट् इस् ओके इट् इस् टफ् इट् इस् टफ् ऐ अण्डर्स्टाण्ड् दट् इस् वै द विकल्प इस् गिवन् आक्चुलि इवन् इन् बट् इन् वेदास् यु सी द प्रयोग सो वाट् ऐ विल् ऐ केन् आस्क् सम् वेदिक् स्कालर् अण्ड् how they pronounce actually and tell you in the next class maybe ask them to pronounce and see if I can record that file and send it but it is possible it is possible in the sense it is the discernibility is less separately we can't चक्रिङ्हि Chakrim, Chakrimhi, we can pronounce. Chakrimhi. But visarga should not look like a hakara. See, when we do that, visarga is pronounced like hakara because it doesn't have an immediate swara. Sometimes that hakara is aurasya varna. Sometimes this एवं वक्तुं शक्यते अहम् एकवारं तत्र उच्चारण शिक्षाशास्त्रम् अस्ति शिक्षाशास्त्र विद्वान् रमण शर्मा महोदयः सन्ति अहम् एकवारं तान् पृच्छामि कथम् अस्ति अस्य प्रयोगः इति वेदे श्रूयते वा तत्र वेदे कथम् उच्चारणम् इति एकवारं ममापि संशयः अस्ति अतः तद् निवारणं करोमि यद्यपि मया वक्तुं शक्यते परन्तु किञ्चित् विदुषां सकाशे पृष्ट्वा वदामि प्रयत्नं करोमि अग्रिमकक्षायाम् अवश्यं वदामि हा एवम् अप्रशान् किं प्रशान्तनोति अप्रशान् किम् इति तत्र अस्ति वा प्रशान्तनोति इति अस्ति हा तत्र अप्रशान् किम् अत्र किं भवति प्रशान्तशब्दः यदि सूत्रे भवति तदा एतस्य प्रवृत्तिः नास्ति इदानीं प्रशान्तनोति इति स्वीकुर्मः यः तत्र अम्परकत्वमस्ति खैवर्णः अपि अस्ति परन्तु प्रशान् इत्यस्य रेफादेशः न भवति रेफादेशः इति नश्चव्यप्रशान् इति सूत्रस्य रेफादेशः न भवति रेफादेशः न भवति चेत् विसर्गापि नागच्छति तदनन्तरं किमपि कार्यं न भवति प्रशान्तनोति इत्यत्र न भवेत् इति इत्यर्थे अप्रशान् इति शब्दः तत्र स्वीकृतः तत्र पदान्तस्य इति किं हन्ति इति अस्ति पदान्तस्य नश्चव्यप्रशान् इत्यत्र अम्परे छवि नान्तस्य पदस्य इति अस्ति इदानीं प्रश्नः क्रियते पदान्तस्य इति किमर्थमस्ति पदस्य इति किमर्थं स्वीकृतम् इति अस्ति हन्ति इति स्वीकुर्मः इदानीम् अम्परकत्वमस्ति छवर्णः अपि अस्ति अत्र रुः भवति चेत् अत्र अनित्यरूपं जायते तेन अत्र न भवेत् इति पदस्य इति स्वीक्रियते हन् इति तु न पदम् हन् इति तु धातुः अस्ति तत्र प्रकृतिः अस्ति न तु पदं प्रकृतिः प्रत्ययेन यदा युज्यते तदा एव पदं भवति अतः हन्ति इत्यत्र रेफादेशः वा ऋत्वं वा न भवेत् इति कारणतः अत्र पदाधिकारः विशेषतः स्वीकृतः तत्र छौ इत्यस्यापि किमर्थं छौ वर्णः एव स्वीक्रियते इत्यत्रापि इदानीं पुत्रान् पालयति इति उदाहरणं तत्तु मूले नास्ति एकम् उदाहरणमस्ति पुत्रान् पालयति तान् कामयते एतत् कृपया लिखन्तु यतोहि लघुकौमुद्यां नास्ति तत् छौपरकत्वं किमर्थं नश्चव्यप्रशान् इत्यत्र छौवेव भवेत् इति उक्तः अस्ति किल छौपरकत्वं किमर्थम् तत्र पुत्रान् पालयति इत्यत्र छौ वर्णः अस्ति वा पुत्रान् पालयति इत्यत्र पकारः छौ नास्ति अतः तत्र न भवति तान् कामयते इत्यत्रापि न भवति एतदुदाहरणं विशेषतः तत्र भाष्ये वा कुत्रापि उक्तं तद् मया सङ्गृह्य स्थापितम् अतः तत्र छविति स्वीकारः अपि तत् अतः अस्माभिः करणीयः इति अस्ति. अभाव भवति तुच्छसन्देहः प्रवृत्तिः भवति. इदानीं शार्ङ्गिन् तदपि शुद्धं तत् एकवारं इदानीमेव दर्शयामि. तद् तद् सम्यक् ज्ञापितं. कौमुद्यामस्ति तद्. कौमुद्यां तादृश उदाहरणमस्ति. सिद्धान्तकौमुद्यां दर्शयामि. अत्र अस्ति. इदानीं स्क्रीन् दृश्यते वा? तत्र इदानीं शार्ङ्गिन् छिन्दि इति अस्ति. पश्यामः उदाहरणम्. इदानीं नष्टव्यप्रशानिति ऋत्वं भवति. तदनन्तरम् अत्रानुनासिकस्य पूर्वस्य त्वा इति अनुनासिकः आगच्छति. तदनन्तरं विसर्गः करवसानेवर्विसर्जनीयः इति. तदनन्तरं विसर्गस्य सकारः शार्ङ्गिन् छिन्दि इति अभवत्. इदानीं सुजाता भगिन्याः प्रश्नः एवमस्ति. अत्र सकारः अस्ति, छकारः अस्ति, चुत्वसन्धिः भवति वा इति. इदानीं तत्र सूत्रसङ्ख्या द्रष्टव्या किल. सूत्रसङ्ख्या किम् अस्ति इति द्रष्टव्यम्. इदानीं स्तोहस्तु नास्तुः इति अष्टमाध्यायस्य चतुर्थपादे अस्ति. यदि अष्टमाध्यायस्य चतुर्थपादसूत्रं वयं प्रथमं कुर्मः, अस्तु एवं चिन्तयामः, प्रथमं कुर्मश्चेत् परन्तु एवं शार्गिन्स् छिन्दि इति साधुरूपं भवति. तत्र अनुनासिकरूपं किं भवति? शार्गिन्स् छिन्दि इति भवति. इदानीं प्रश्नः एवम् अस्ति, अत्रैव नकारस्य स्थाने शकारः कर्तुं शक्यते इति. न इदानीम् अत्र पश्यतु, सकारः एव स्थानि किल. श्रुत्वसन्धि सकारतवर्गाः स्थानिनः भवन्ति. स्तोस्तु नास्तुः स्थानिनः. तवर्गवर्णः तु नकारः एव अत्र स्थानि. नष्टव्यप्रशानित्यत्र इदानीं नकारस्य स्थाने किं कर्तव्यम् अस्माभिः? शार्गिन् इति चवर्गः करणीयः, पञ्चमाक्षरः करणीयः. तदपेक्षया नष्टव्यप्रशान् इति कृतम् अस्माभिः. नष्टव्यप्रशान् इति इदानीं नष्टव्यप्रशान् सूत्रम् अष्टमाध्यायस्य तृतीयपादे अस्ति. नष्टव्यप्रशान् किं करोति? तत्र प्रथमं सः सः नश्चव्यप्रशान् इति सूत्रं तु स्तोश्चुनाश्चुः इति सूत्रम् अस्ति इत्येव न जानाति. स्तोश्चुनाश्चुः 8440 इति अस्ति किल, स्तोश्चुनाश्चुः 8440 वा अवश्यं तदेव अस्ति वा, तस्य संख्या एकवारं पश्यामि. तत् 8440 अस्ति. नश्चव्यप्रशान् 8440 इति अस्ति एव न जानाति. झटिति आगत्य कार्यं कृत्वा अग्रे सर्वं भवति. 8437 इति पूर्वम् आगत्य 832 इत्यादिकं तत् यदि नकारस्य रेफः भवति चेत् अक्षरानुनासिकस्य तत्सर्वं भवति. तदनन्तरं तस्य कार्यम् इदानीं सकारः चकारः अस्ति. इदानीं इदानीं नश्चव्यप्रशान् इति सूत्रस्य प्रवृत्तिः नास्ति. यदा शार्गिन्स् छिन्दी इति तस्मिन् तस्यां स्थितौ तस्यां इन् दट् स्टेट् किम् अस्ति, तत्र नश्चव्यप्रशान् इति सूत्रस्य प्रवृत्तिः नास्ति. तदा कस्य सूत्रस्य प्रवृत्तिः इति तदा द्रष्टुं, तदा स्तोस्तु नास्तुः इति आगत्य कार्यं करोति इति अभिप्रायः. इतोपि एकवारं पृच्छामि, प्रायः सूत्रसङ्ख्यानुगुणमेव अस्माभिः गन्तव्यम् इति प्रायः अहं चिन्तयामि. परन्तु अग्रिमकक्षां यदि शक्यते चेत् वदामि. परन्तु चित्तसन्धिस्तु भवति, प्रथमं तु सूत्रसङ्ख्यां दृष्ट्वा एव करणीयम् इति, एतदेव समाधानम् इति मन्ये. तत्तु प्रधानं, तत् अवश्यं ज्ञातव्यम्, अवश्यं ज्ञातव्यं. तत्तु व्याकरणस्य आरम्भे एव उक्तम्, आरम्भकक्षासु अस्माभिः उक्तम् अवश्यं. सूत्रसङ्ख्या इस् वेरि वेरि इम्पार्टेण्ट् इन् दिस् वन् अण्ड् पूर्वत्र सिद्धं दट् टु 8th चाप्टर् 8-1 इस् देर् नो दट् सूत्र पूर्वत्र सिद्धम्. From there, so it is reverse. Everything is reverse. So we have to be very careful in 8th chapter. Ashtamadhyayasya dvitiya pade asmabhih savadhanataya. Atayeva vyanjana sandhinam sutram sarvam tatraiva asti. Ashtamadhyayasya chaturtha pade kadachit dvitiya pade asti. Prayaha ashtapratishata sutrani tatra chaturtha adhyayeva तृतीय चतुर्थपादे वा तृतीयपादे सन्ति. शार्ङ्गिन् सिद्धि इति उदाहरणं लघुकौमुद्यां नास्ति, अतः मया न दत्तं. तत्र स्लैड् मध्ये यदि योजयितुं शक्यते एतद् योजयित्वा प्रेषयामि. स्लैड् यदा अप्लोड् करोमि एतद् उदाहरणमपि योजयामि, तर्हि संशयस्य एतदभूत् तत्र भवति. अस्तु, अद्य मम दशवादने किमपि कार्यान्तरं विद्यते, अतः किञ्चित् शीघ्रं समापयामः अद्य. कृपया क्षम्यताम्. राम राम राम. पद्मा मामी किमपि वक्तु कामा अस्ति, अस्तु शृणुमः. சொல்லுங்க மாமி. ஓ, அத்ராநாசிகஸ்ய பூர்வஸ்யத்வ 837 ஆகதம். எயிட் த்ரீ செவன் ஆகதம் பிரதமம். 832 किं चिन्तयति, 832 कृते 837 नास्ति इति चिन्तयति. एवम् अत्रानुनासिकस्य पूर्वस्य तु वा इति अत्र इत्यस्य ऋत्वप्रकरणम् अस्ति. नश्चव्यप्रशान् इत्यत्र ऋगुः अस्ति. अत्रानुनासिकस्य पूर्वस्य तु वा इति सूत्रस्य अर्थः अत्र ऋप्रकरणे, यदि ऋप्रकरणे सूत्रं विद्यते तदा एतत् सूत्रस्य प्रवृत्तिः. रूपप्रकरणे अस्ति चेत् रूपप्रकरणं कदा कुत्रतः कुत्र इति अस्माभिः अधीतं तत्र मया उक्तं रूपप्रकरणं नाम तस्मिन् दिने उक्तं रूपप्रकरणं नाम
இது கௌமுதியில இருக்கு இந்த விஷயம் கௌமுதியில பார்க்கணும் இல்லைனாலும் அஹம் வதா அக்ரிம கட்சாயாம எதாவது ஸ்பஷ்டீகரோமே சமீச்சீனம் எதா சுஜாதா பகினி பிருஷ்டவதி ததா எதாவது வக்தவியம் ஆசித் அஸ்து ராம் ராம் ஏனாட்சர சமம் நாயம் அதிகமே
विसर्गस्य हाँ विसर्गस्य अर्धमात्रा अस्ति अर्धमात्रा अस्ति कथं ज्ञायते डसिदुट् इत्यत्र तस्मिन् दिने उक्तं मया डसिदुट् इति तत्र प्रिया भगिनी पृष्टवती प्रायः डसिदुट् इत्यत्र डः स्तः दुट् इति किमर्थं नास्ति तदा मया उक्तं विसर्गस्य अर्धमात्रा इति
येनाक्षरस्वाम्नायमधिगर्णे महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौताग्रः पुंसामि वले शब्दपादिभिः तमश्चाज्ञानगम्यं तस्मै पाणिनये नमः नत्वा सरस्वतीं देवीं तां पुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् धन्यवादाः राम 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 शुभरात्रिः